ऋषिरुवाच इत्याकर्ण्यवचो देव्या सदूतो मर्षपूरितः समाचष्ट समागम्य दैत्यराजाय विस्तरात् तस्य दूतस्य तद्वाक्यम् आकर्ण्यासुरराट्ततः सक्रोधः प्राह दैत्यानाम् अधिपम् धूम्रलोचनम् हे धूम्रलोचनाशु त्वम् स्वसैन्यपरिवारितः तमानय बलाद्दुष्टाम् केशाकर्षणविह्वलाम् तत्परित्राणदः कश्चिद् यदि वोत्तिष्ठते अपरः सहन्तव्योऽमरो वापि यक्षो गन्धर्व एव वा ऋषिरुवाच तेनाग्नप्तस्ततः शीघ्रम् स दैत्यो धूम्रलोचनः वृतः षष्ट्या सहस्राणाम् असुराणाम् धृतम् ययौ स दृष्ट्वा ताम् ततो देवीम् तुहिनाचल संस्थिताम् जगादोच्चैः प्रयाहीति मूलम् शुम्भनिशुम्भयोः न चेत् प्रीत्याद्य भवति मद्भर्तारमुपैष्यति ततो बलान्नयाम्येषा केशाकर्षणविह्वलाम् देव्युवाच दैत्येश्वरेण प्रहितो बलवान् बलसंवृतः बलान्नयसि मामेवम् ततः किं ते करोम्यहम् ऋषिरुवाच इत्युक्तः सोऽभ्यधावत्ताम् असुरो धूम्रलोचनः हुङ्कारेणैव तम् भस्मसा चकाराम्बिका ततः अथ क्रुद्धम् महासैन्यम् असुराणाम् तथाम्बिकाम् ववर्षसायकैस्तीक्ष्णैस्तथा शक्तिपरश्वधैः ततोधुतसटः कोपात् कृत्वा नादम् सुभैरवम् पपातासुरसेनायाम् सिंहो देव्याः स्ववाहनः कांश्चित्करप्रहारेण दैत्यानास्येन चापरान् आक्रान्त्या चाधरेणान्यान् सजघानमहासुरान् केषाञ्चित् पाटयामास नखैः कोष्ठानि केसरी तथा तलप्रहारेण शिरांसि कृतवान् पृथक् विच्छिन्नबाहुशिरसा कृतास्तेन तथा परे पपौ च रुधिरम् कोष्ठात् अन्येषाम् धुतकेसरः क्षणेन तद्बलम् सर्वम् क्षयम् नीतम् महात्मना तेन केसरिणा देव्या वाहनेनातिकोपिना श्रुत्वा तमसुरम् देव्या निहतम् धूम्रलोचनम् बलम् च क्षयितम् कृत्स्नम् देवी केसरिणा ततः चुकोपदैत्याधिपतिः शुम्भः प्रस्फुरिताधरः आज्ञापयामाश च तौ चण्डमुण्डौ महासुरौ। हे चण्ड हे मुण्ड बलैः बहुलैः परिवारितौ। तत्र गच्छत गत्वा च सा समानीयतां लघु। केशेष्वाकृष्य बद्ध्वा वा यदि वः संशयो युधि, तदा शेषायुधैः सर्वैः असुरैर्विनिहन्यताम्। तस्यां हतायां दुष्टायां सिंहे च विनिपातिते। शीघ्रमागम्यतां बद्ध्वा गृहीत्वा तमधाम्बिकाम्। इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवी माहात्म्ये धूम्रलोचनवधो नाम षष्ठो अध्यायः। अथ सप्तमो अध्यायः। ऋषिरिवाच, आज्ञाप्तास्ते ततो दैत्याः चण्डमुण्डपुरोगमाः। चतुरङ्गबलोपेता ययुरभ्युद्यतायुधाः। ददृशुस्ते ततो देवीम् ईषद्भासाम् व्यवस्थिताम्। सिंहस्योपरिशैलेन्द्र शृङ्गे महति काञ्चने। ते दृष्ट्वा ताम् समादातुम् उद्यमम् चक्रुरुद्यताः। आकृष्टचापासिधराः तथान्ये तत्समीपगाः। ततः कोपम् चकारोच्चैः अम्बिका तानरीन् प्रति। कोपेन चास्या वदनम् अशीवर्णमभूत् तदा। भ्रुकुटे कुटिला तस्या ललाटफलकादृतम्। काले करालवदना विनिष्क्रान्तासि पासिनी। विचित्रखड्वाङ्गधरा नरमाला विभूषणा। द्वीपि चर्म परिधाना शुष्कमांसाति भैरवा। अतिविस्तारवदना जिह्वालनभीषणा। निमग्ना रक्तनयना नादापूरितदिङ्मुखा। सा वेगेनाभिपतिता घातयन्ती महासुरान्। सैन्ये तत्र सुरारीणाम् अभक्षयत तद्बलम्। पार्शिग्राहाङ्कुशग्राही योधघण्टा समन्वितान्। समादायैकहस्तेन मुखे चिक्षेपवारणान्। तथैव योधम् तुरगै रथम् सारथिना सह। निक्षिप्य वक्त्रे दशनैः चर्वयत्यति भैरवम्। एकम् जग्राहकेशेषु ग्रीवायामथ चापरम्। पादेनाक्रम्य चैवान्यम् उरसान्यमपोथयत्। तैर्मुक्तानि च शस्त्राणि महास्त्राणि तथा सुरैः। मुखेन जग्राहरुषा दशनैर्मथितान्यपि। बलिनां तद्बलं सर्वम् असुराणां दुरात्मनाम्। ममर्दाभक्षयच्चान्यान् अन्यांश्चाताडयत्तथा। असिना निहताः केचित् केचित् खड्वाङ्गताडिताः। जिग्मोर्विनाशमसुरा दन्ताग्राभिहतास्तथा क्षणेन तद्बलं सर्वं असुराणां निपातितं दृष्ट्वा चण्डोभिदुद्रावा तां कालीमतिभीषणाम् शरवर्षैर्महाभीमैः भीमाक्षीं तां महासुरः छादयामासचक्रैश्च मुण्डः क्षिप्तैः सहस्रशः तानि चक्राण्यनेकानि विषमानानि तन्मुखम् बभूर्यथार्कबिम्बानि सुबहूनि घनोदरम् ततो जहासातिरुषा भीमं भैरवनादिनी काली करालवक्त्रान्ता दुर्दर्शदशनोज्ज्वला उत्थाय च महासिंहं देवी चण्डमधावता गृहीत्वा चास्य केशेषु शिरस्तेनासिनाच्छिनात् अथ मुण्डोऽभ्यधावत्ताम् दृष्ट्वा चण्डं निपातितं तमप्यपातयद्भूमौ सा खड्गाभिहतं मृषा हतशेषं ततः सैन्यं दृष्ट्वा चण्डं निपातितं मुण्डं च सुमहावीर्यं दिशो भेजे भयातुरम् शिरश्चण्डस्य काली च गृहीत्वा मुण्डमेव च प्राह प्रचण्डाट्टहासं मिश्रमभ्येत्य चण्डिकाम् मया तवात्रोपहृतौ चण्डमुण्डौ महापशु युद्धयज्ञे स्वयं शुम्भम् निशुम्भं च हनिष्यसि ऋषिरुवाच तावानीतौ ततो दृष्ट्वा चण्डमुण्डौ महासुरौ उवाच कालीं कल्याणी ललितं चण्डिकावचः यस्माच्चण्डं च मुण्डं च गृहीत्वा त्वमुपागता च मुण्डेति ततो लोके ख्याता देवि भविष्यसि इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये चण्डमुण्डवधो नाम सप्तमोऽध्यायः अथ अष्टमोऽध्यायः ऋषिरुवाच चण्डे च निहते दैत्ये मुण्डे च विनिपातिते बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः ततः कोपपराधीना चेता शुम्भः प्रतापवान् उद्योगं सर्वसैन्यानां दैत्यानामादिदेशः अद्य सर्वबलैर्दैत्याः षडशीतिरुदायुधाः कम्बूनां चतुरशीतिः निर्यान्तु स्वबलैर्वृताः कोटिवीर्याणि पञ्चाशत् असुराणां कुलानि वै शतं कुलानि धौम्राणां निर्गच्छन्तु ममाग्नया कालकादौर्हृदा मौर्याः कालकेयास्तथासुराः युद्धाय सज्जा निर्यान्तु आग्नया त्वरिता मम इत्याज्ञाप्यासुरपतिः शुम्भो भैरवशासनः निर्जगाम महासैन्य सहस्रैर्बहुभिर्वृतः आयान्तं चण्डिका दृष्ट्वा तत्सैन्यमतिभीषणम् ज्वास्वनैः पूरयामास धरणी गगनान्तरम् ततः सिंहो महानादम् अतीव कृतवान् नृपा घण्टास्वनेन तान्नादान् अम्बिका चोपबृंहयत् धनुर्ज्या सिंहघण्टानाम् नादापूरितदिङ्मुखा निनादैर्भीषणैः काली जिज्ञे विस्तारितानना तं निनादमुपश्रुत्य दैत्यसैन्यैश्चतुर्दिशम् देवी सिंहस्तथा काली सरूषैः परिवारिताः एतस्मिन्नन्तरे भूपा विनाशाय सुरद्विषाम् भवायामरसिंहानाम् अतिवीर्यबलान्विताः ब्रह्मेश गुहविष्णूनाम् तथेन्द्रस्य च शक्तयः शरीरेभ्यो विनिष्क्रम्य तद्रूपैश्चण्डिकां ययुः यस्य देवस्य यद्रूपम् यथाभूषणवाहनम् तद्वदेव हि तच्छक्तेः असुरान् योद्धुमाययौ हंसयुक्तविमानाग्रे साक्षसूत्रकमण्डलुः आयाता ब्रह्मणः शक्ति ब्रह्माणि साभिधीयते माहेश्वरी वृषारूढा त्रिशूलवरधारिणी महाहिवलया प्राप्ता चन्द्ररेखा विभूषणा कौमारी शक्तिहस्ता च मयूरवरवाहना योद्धुमभ्याययौ दैत्यान् अम्बिका गुहरूपिणी तथैव वैष्णवी शक्तिः गरुडोपरि संस्थिता शङ्खचक्रगदा शार्ङ्गा खड्गहस्ताभ्युपाययौ यज्ञवाराहमतुलम् रूपम् या बिभ्रतो हरेः शक्तिः साप्याययौ तत्र वाराहीम् बिभ्रति तनुम् नारसिंहे नृसिंहस्य बिभ्रति सदृशम् वपुः प्राप्ता तत्र सटाक्षेप क्षिप्तनक्षत्रसंहतिः वज्रहस्ता तथैवैन्द्री गजराजोपरिस्थिता प्राप्ता सहस्रनयना यथा शक्रस्तथैव सा ततः परिवृतस्ताभि ईशानो देवशक्तिभिः हन्यन्तामसुराः शीघ्रम् मम प्रीत्याः चण्डिकाम् ततो देवी शरीरात्तु विनिष्क्रान्तातिभीषणा चण्डिका शक्तिरत्युग्रा शिवा शतनिनादिनी सा चाह धूम्रजटिलम् ईशानमपराजिता दूतस्त्वं गच्छ भगवन् पार्श्वं शुम्भनिशुम्भयोः ब्रूहि शुम्भं निशुम्भं च दानवावति गर्वितौ ये चान्ये दानवास्तत्र युद्धाय समुपस्थिताः। त्रैलोक्यमिन्द्रो लभताम् देवाः सन्तु हविर्भुजः। यूयं प्रयात पातालम् यदि जीवितुमिच्छथ। बलावलेपा तथ चेत् भवन्तो युद्धकाङ्क्षिणः। तदा गच्छत तृप्यन्तो मच्छिवाः पिशितेन वः। यतो नियुक्तो दैत्येन तया देव्या शिव स्वयम्। शिवदूतेति लोकेऽस्मिन् ततः साख्यातिमागता। तेऽपि श्रुत्वा वचो देव्याः शर्वाख्यातम् महासुराः। अमर्षा पूरिता जिग्मुर्यतः कात्यायनी स्थिता। ततः प्रथममेवाग्रे शरशक्तिरिष्टिवृष्टिभिः। ववर्षरुद्धतामर्षा ताम् देवीम् अमरारयः। स च तान् प्रहितान् बाणान् शूलशक्तिपरश्वधान् चिच्छेदलीलयाद्माता धनुर्मुक्तैर्महेशुभिः। तस्याग्रतस्तथा काली शूलपातविदारितान् खट्वाङ्गपोथितां शारीन् कुर्वन्ति व्यचरत्तदा। कमण्डलुजलाक्षेप हतवीर्यान् हतौजसः। ब्रह्माणि चाकरोत् शत्रून् येन येन स्म धावति। माहेश्वरी त्रिशूलेन तथा चक्रेण वैष्णवी। दैत्यान् जघानकौमारी तथा शक्त्यातिकोपना। ऐन्द्रीकुलिशपातेन शतशो दैत्यदानवाः। पेतुर्विदारिताः पृथ्व्याम् रुधिरौघप्रवर्षिणः। तुण्डप्रहारविध्वस्ता दंष्ट्राग्रक्षतवक्षसः। वाराहमूर्त्यान्यपतम् श्चक्रेण च विदारिताः। नखैर्विदारितांश्चान्यान् भक्षयन्ति महासुरान्। नारसिंहे च चाराजौ नादापूर्णदिगम्बरा। चण्डाट्टहासैरसुराः शिवदूत्यभिदूषिताः। पेतुः पृथिव्याम् पतिताम् स्तांश्च खादाथ सा तदा। इति मातृगणम् क्रुद्धम् मर्दयन्तम् महासुरान्। दृष्ट्वाभ्युपायैर्विविधैर्नेषुर्देवारिसैनिकाः। पलायनपरान् दृष्ट्वा दैत्यान् मातृगणार्दितान्। योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः। रक्तबिन्दुर्यदा भूमौ पतत्यस्य शरीरतः। समुत्पतति मेदिन्याम् तत्प्रमाणस्तदासुरः। युयुधे स गदापाणि इन्द्रशक्त्या महासुरः। ततैश्चेन्द्रेष्वज्रेण रक्तबीजमताडयत्। कुलिशेनाहतस्याशु बहु शुश्रावशोडितम्। समुत् तस्थुस्ततो योधाः तद्रूपाः तत्पराक्रमाः यावन्तः पतितास्तस्य शरीराद्रक्तबिन्दवः तावन्तः पुरुषा जाताः तद्वीर्यबलविक्रमाः ते चापि युयुधुस्तत्र पुरुषा रक्तसम्भवाः समं मातृभिरत्युग्र शस्त्रपातातिभीषणम् पुनश्च वज्रपातेन क्षतमस्य शिरो यदा ववाह रक्तं पुरुषाः ततो जाताः सहस्रशः वैष्णवी समरे चैनं चक्रेणाभिजघानः गदया ताडयामास ऐन्द्रीतम् असुरेश्वरम् वैष्णवी चक्रभिन्नस्य रुधिरस्रावसम्भवैः सहस्रशो जगद्व्याप्तम् तत्प्रमाणैर्महासुरैः शक्त्या जघानकौमारी वाराही च तथासिना माहेश्वरी त्रिशूलेन रक्तबीजं महासुरम् स चापि गदया दैत्याः सर्वायैवाहनत्पृथक् मातृः कोपसमाविष्टो रक्तबीजो महासुरः तस्याः तस्य बहुधा शक्तिशूलादिभिर्भुवि पपातयो वै रक्तौघः स्तेनासन् शतशोऽसुराः तैश्चासुरासृक्सम्भूतैः असुरैः सकलं जगत् व्याप्तमासीत् ततो देवा भयमाजग्मुरुत्तमम् तान् विषन्नान् सुरान् दृष्ट्वा चण्डिका प्राह सत्वरा उवाच कालीं च मुण्डे विस्तीर्णं वदनं कुरु मत्स्यस्त्रपातसम्भूतान् रक्तबिन्दून्महासुरान् रक्तबिन्दोः प्रतीच्छत्वं वक्त्रेणानेन वेगिता भक्षयन्ति चररणे तदुत्पन्नान्महासुरान् एवमेष क्षयं दैत्याः क्षीणरक्तो गमिष्यति भक्ष्यमाणास्त्वया चोग्रा न चोत्पत्स्यन्ति चापरे इत्युक्त्वा तां ततो देवी शूलेनाभिजघानतम् मुखेन काली जगृहे रक्तबीजस्य शोणितम् ततो सा वा जघानाथा गदया तत्र चण्डिकाम् न चास्या वेदनां चक्रे गदापातोल्पिकामपि तस्याः तस्य देहात्तु बहु शुश्रावशोणितम् यतस्ततस्तद्वक्त्रेण चामुण्डा सम्प्रतीच्छति मुखे समुद्गता येस्या रक्तपातान्महासुराः तांश्चखादाथ चामुण्डा पपौ तस्य च शोणितम् देवी शूलेन वज्रेण बाणैरसिभिरिष्टिभिः जघानरक्तबीजं तं चामुण्डापीतशोणितम् सपपातमही पृष्ठे शस्त्रसङ्घसमाहतः नीरक्तश्च महीपाला रक्तबीजो महासुरः ततस्ते हर्षमतुलम् अवापुस्त्रिदशा नृपा तेषां मातृगणो जातो ननर्तासृङ्मदोद्धतः इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये रक्तबीजवधो नाम अष्टमोऽध्यायः अथ नवमोऽध्यायः राजोवाच विचित्रमिदमाख्यातम् भगवन् भवता मम देव्याश्चरितमाहात्म्यम् रक्तबीजवधाश्रितम् भूयश्चेच्छाम्यहम् श्रोतुम् रक्तबीजे निपातिते चकारशुम्भो यत्कर्मा निशुम्भश्चातिकोपनः ऋषिरुवाच चकारकोपमतुलम् रक्तबीजे निपातिते शुम्भाशुरो निशुम्भश्च हतेष्वन्येषु चाहवे हन्यमानम् महासैन्यम् विलोक्यामर्षमुद्वहन् अभ्यधावन् निशुम्भोऽथ मुख्यया सुरसेनया तस्याग्रतस्तथा पृष्ठे पार्श्वयोश्च महासुराः सन्दष्टौष्टपुटा कृथा हन्तुम् देवीमुपाययुः आजगाम महावीर्या शुम्भोऽपि स्वबलैर्वृतः निहन्तुम् चण्डिकाम् कोपात् कृत्वा युद्धम् तु मातृभिः ततो युद्धमसीद्देव्या शुम्भनिशुम्भयोः शरवर्षमतीवोग्रम् मेघयोरिव वर्षतोः चिच्छेदास्ताम् शरांस्ताभ्याम् चण्डिकाश्वशरोत्करैः ताडयामास चाङ्गेषु शस्त्रौघैरसुरेश्वरौ निशुम्भो निशितम् खड्गम् चर्म चादाय सुप्रभम् अताडयन्मूर्ध्नि सिंहम् देव्यावाहनमुत्तमम् ताडिते वाहने देवी क्षुरप्रीणासिमुत्तमम् निशुम्भस्याशुचिच्छेदा चर्म चाप्यष्टचन्द्रकम् छिन्ने चर्मणि खड्गे च शक्तिम् चिक्षेपसूसुरः तामप्यस्य द्विधा चक्रे चक्रेणाभिमुखागताम् कोपाद्मातो निशुम्भोऽथा शूलम् जग्राहदानवः आयान्तम् मुष्टिपातेन देवी तच्चाप्यचूर्णयत् आविध्याथ गदाम् सोऽपि चिक्षेपचण्डिकाम् प्रति सापि देव्या त्रिशूलेन भिन्ना भस्मत्वमागता ततः परशुहस्तम् तम् आयान्तम् दैत्यपुङ्गवम् आहत्य देवी बाणौघै अपातयत भूतले तस्मिन्निपतिते भूमौ निशुम्भे भीमविक्रमे भ्रातर्यतीव संक्रुद्धा प्रययौ हन्तुमम्बिकाम् सरथस्तस्तथात्युच्चैः गृहीतपरमायुधैः भुजैरष्टाभिरतुलैः व्याप्याशेषं बभौ नभः तमायान्तं समालोक्या देवी शङ्खमवादयत् ज्याशब्दं चापि धनुषा चकारातीव दुःसहम् पूरयामास ककुभो निजघण्टास्वनेन च समस्तदैत्यसैन्यानां तेजोवधविधायिना ततः सिंहो महानादैस्त्याजिते भमहामदैः पूरयामास गगनं गां तथोपदिशो दश ततः काली समुत्पत्या गगनं क्ष्मामताडयत् कराभ्यां तन्निनादेन प्राक्स्वनास्तेति रोहिताः अट्टट्टहासमशिवं शिवदूती चकारः तैः शब्दैरसुरास्त्रेषु शुम्भः कोपं परं ययौ दुरात्मन् स्तिष्ठतिष्ठेति व्याजहाराम्बिका यदा तदा जयेत्यभिहितं देवैराकाशसंस्थितैः शुम्भेनागत्यया शक्ति मुक्ता ज्वालातिभीषणा आयान्ति वह्निकूटाभा सा निरस्ता महोल्कया सिंहनादेन शुम्भस्य व्याप्तं लोकत्रयान्तरम् निर्घातनिःस्वनो घोरो जितवानवनीपते शुम्भमुक्तान् शरान् देवी शुम्भस्तत्प्रहितान् शरान् चिच्छेदस्वशरैरुग्रैः शतशोधसहस्रशः ततः सा चण्डिका क्रुद्धा शूलेनाभिजघानतम् स तदाभिहतो भूमौ मूर्छितो निपपातः ततो निशुम्भः सम्प्राप्य चेतनामात्तकार्मुकः आजघानशरैर्देवीं कालीं केसरिणं तथा पुनश्च कृत्वा बाहूनाम् अयुतं धनुजेश्वरः चक्रायुधेन दितिजः छादयामास चण्डिकां ततो भगवती क्रुद्धा दुर्गा दुर्गार्तिनाशिनी चिच्छेदतानि चक्राणि स्वशरैः सायकांश्च तान् ततो निशुम्भो वेगेन गदामादाय चण्डिकाम् अभ्यधावत वै हन्तुं दैत्यसेना समावृतः तस्यापततयेवाशु गदां चिच्छेदचण्डिका खड्गेन शितधारेण स च शूलं समाददे शूलहस्तं समायान्तं निशुम्भम् अमरार्दनम् हृदि विव्याधशूलेन वेगा विद्धेन चंडिका भिन्नस्य तस्य शूलेन हृदयान्निसृतो परः महाबलो महावीर्यः तिष्ठेति पुरुषो वदन् तस्य निष्क्रामतो देवी प्रहस्य स्वनवत्ततः शिरश्चिच्छेद खड्गेन ततो सावपतद्भुवि ततः सिंहश्चखादोग्र दंष्ट्राक्षुण्ण शिरोधरान् असुरांस्तांस्तथा काली शिवदूती तथा परान् कौमारी शक्तिनिर्भिन्नाः केचिन्नेषुर्महासुराः ब्रह्माणी मन्त्रपूतेन तोयेनान्ये निराकृताः माहेश्वरी त्रिशूलेन भिन्नाः पेतुस्तथा परे वाराही तुण्डघातेन केचिच्चूर्णीकृता भुवि खण्डं खण्डं च चक्रेण वैष्णव्या दानवाः कृताः वज्रेण चेन्द्री हस्ताग्र विमुक्तेन तथा परे केचिद्विनेशुरसुराः केचिन्नष्टा महाहवात् भक्षिताश्चापरे काले शिवदूती मृगाधिपैः ॐ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये निशुम्भवधो नाम नवमोऽध्यायः।